इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी ह्यः तमिलनाडुराज्यस्य कोयम्बटूरनगरे नवकोटि कृषकाणां कृते अष्टादशसहस्रकोटिरूप्यकाणां एकविंशतितमं प्रधानमन्त्री कृषक सम्मानन धनराशि खण्डस्य विमोचनं कृतवान्। अस्मिन्नवसरे श्रीमोदी दक्षिण भारतीय प्राकृतिक कृषि शिखर सम्मेलनस्य उद्घाटनमपि कृतवान्। सभां सम्बोधयन् श्रीमोदी उक्तवान् यत् विगत एकादशवर्षेष् कृषिक्षेत्रे परिवर्तनकारिपरिष्कारा दृष्टा। सः अवदत् यत् देश प्राकृतिक कृषे वैश्विक केन्द्रस्य मार्गे अग्रेसरति।
भारत नेचुरल फार्मिंग का ग्लोबल हब बनने के रास्ते पर है। हमारी बायोडायवर्सिटी एक नया आकार ले रही है। देश के युवा भी अब एग्रीकल्चर को एक मॉडर्न स्केलेबल अपॉर्चुनिटी के रूप में देख रहे हैं। इससे देश की रूरल इकोनॉमी को बहुत बड़ी ताकत मिलने जा रही है।
प्रधानमन्त्रिणा उक्तं यत् किसान क्रेडिट कार्ड द्वारा कृषकाः दशलक्षकोटिरूप्यकाणां लाभं प्राप्तवन्तः। अस्मिन्नवसरे श्रीप्रधानमन्त्री मोदी विशिष्टान् पञ्च प्राकृतिक कृषि विशेषज्ञान् अपि अभिनन्दितवान्। जेडीयू इति संयुक्त जनता दलस्य प्रमुखः श्रीनीतीशकुमारः अद्य दशमवारं बिहारस्य मुख्यमन्त्रिरूपेण शपथं ग्रहीष्यति। पटनानगरस्य ऐतिहासिक गांधी मैदान इत्यत्र प्रातः सार्धद्वादशवादने शपथग्रहण समारोहः भविष्यति। कार्यक्रमे प्रधानमन्त्री नरेन्द्र मोदी तथा अनेके नेतारः मान्याश्च उपस्थिताः भविष्यन्ति। ह्यः नीतीशकुमारः एनडीए इत्यस्य राष्ट्रिय लोकतान्त्रिक गठबन्धनस्य विधायक दलस्य नेतृरूपेण निर्वाचितः आसीत्। पटनानगरे गठबन्धनस्य पञ्चघटकदलानां नवनिर्वाचित विधायकानां संयुक्तसभायाम् एषः निर्णयः कृतः वर्तते। राष्ट्रपतिः द्रौपदी मुर्मुः अद्यारभ्य छत्तीसगढ़ तेलंगाना आन्ध्रप्रदेश राज्याणां त्रिदिवसीय यात्रायां भविष्यति। छत्तीसगढ़स्य यात्रायां राष्ट्रपतिः अम्बिकापुरे जनजातीय गौरव दिवस उत्सवस्य शोभां करिष्यति। राष्ट्रपतिः मुर्मुः स्वस्य यात्रायाः द्वितीय दिने तेलंगाना राज्यस्य सिकन्दराबाद नगरस्य राष्ट्रपति निलयम् इत्यत्र ऐषमः भारतीय कला महोत्सवस्य उद्घाटनं करिष्यति। शनिवासरे राष्ट्रपतिः आन्ध्रप्रदेशस्य पुट्टपर्तिस्थित प्रशान्तिनिलयम् इत्यत्र श्रीसत्यसाईबाबा इत्यस्य शताब्दी उत्सवे विशेषसत्रस्य शोभां वर्धयिष्यति। प्रधानमन्त्री श्रीनरेन्द्रमोदी श्वः आरभ्य त्रयोविंशतिदिनांकपर्यन्तं दक्षिणाफ्रिकादेशस्य जोहान्सबर्ग नगरस्य यात्रायां भविष्यति। अस्मिन्नवसरे सः विंशतितमे जी विंशति नेतृशिखरसम्मेलने भागं गृहीष्यति। वैश्विकदक्षिणे एतत् क्रमशः चतुर्थं जी विंशति शिखरसम्मेलनं भविष्यति। विदेशमन्त्रालयेन सूचितं यत् शिखरसम्मेलने प्रधानमन्त्री जी विंशति इत्यस्य कार्यसूचौ भारतस्य दृष्टिकोणं प्रस्तौति। शिखरसम्मेलनस्य त्रयेष्वपि सत्रेष् प्रधानमन्त्री सम्बोधयिष्यतीति अपेक्षा वर्तते। आस्ट्रेलियादेशस्य विदेशमन्त्री पेन्नी वोंगः ह्यः भारतयात्रार्थं नवदिल्लीं प्राप्तवान्। साद्य विदेशमन्त्री डॉ एस जयशंकरेण सह षोडशतमे विदेशमन्त्री रूपरेखासंवादस्य सह अध्यक्षतां करिष्यति। भारत आस्ट्रेलिया व्यापक रणनीतिक सहयोगस्य पृष्ठभूमौ इयं यात्रा महत्वपूर्णा वर्तते। भारतस्य अन्ताराष्ट्रिय चलचित्र महोत्सवस्य आईएफएफआई विंशति पञ्चविंशतिः इत्यस्य षट्पञ्चाशत्तमं संस्करणम् अद्य गोवानगरे आरभ्यते। भारतीय शूटर पटवः स्वस्य प्रभावशालि प्रदर्शनं निरन्तरं कृत्वा ह्यः जापानदेशस्य टोकियो नगरे पञ्चविंशतितमे बधिर ओलम्पिक क्रीडायाम् अधिकपदानि प्राप्तवन्तः। भारतीय ऋतुविज्ञान विभागेन पश्चिम मध्यप्रदेशस्य केषुचित् भागेष् अद्य अतीव शीततरंगस्य स्थितेः पूर्वानुमानं कृतमस्ति। विभागेन उक्तं यत् आगामि पञ्चदिनेष् मध्यभारते न्यूनातिन्यूनतापमाने क्रमेण द्वितः चत्वारि डिग्री सेल्सियस पर्यन्तं वृद्धिं द्रष्टुं शक्यते। इति वार्ताः।
भारत नेचुरल